ओम नमो भगवते वासुदेवाय। अथ चतुश्चत्वारिंशोऽध्यायः। श्रीशुक उवाच। एवं चर्चित संकल्पो भगवान मधुसूदनः आशसादाथ चाणूरं मुष्टिकं रोहिणीसुतः हस्ताभ्यां हस्तयोर्बद्ध्वा पद्भ्यामेव च पादयोः विचकर्षतुरन्योन्यं प्रसह्य विजिगीषया अरत्नी द्वे अरत्निभ्यां जानुभ्यां चैव जानुनी शिरःशीर्ष्णोरसोरस्तावन्योन्यमभिजग्नतुः परिभ्रामणविक्षेपपरिरम्भावपातनैः उत्सर्पणापसर्पणैश्चान्योन्यं प्रत्यरुन्धताम् उत्थापनैरुन्नयनैश्चालनैस्थापनैरपि परस्परं जिगीषन्तावपचक्रतुरात्मनः तत्बलाबलवद्युद्धं समेता सर्वयोषितः ऊचुः परस्परं राजन् सानुकम्पावरुथशः महानयं बता धर्म एषां राजसभासदां ये बलाबलवद्युद्धं राज्ञोऽन्विच्छन्ति पश्यतः क्व वज्रसार सर्वाङ्गौ मल्लौ शैलेन्द्रसन्निभौ क्व चाति सुकुमाराङ्गौ किशोरौ नाप्तयौवनौ धर्मव्यतिक्रमो यस्य समाजस्य ध्रुवं भवेत् यत्रा धर्मः समुत्तिष्ठेन्न स्थेयं तत्र कर्हिचित् न सभां प्रविशेत् प्राज्ञः सभ्यदोषाननुस्मरन् अब्रुवन् विब्रुवन्नज्ञो नरः किल्बिषमश्नुते वल्गतशत्रुमभितः कृष्णस्य वदनाम्बुजम् वीक्षतां समवार्युक्तं पद्मकोशमिवाम्बुभिः किं न पश्यत रामस्य मुखमाताम्रलोचनम् मुष्टिकं प्रति सामर्षं हाससं ब्रह्मशोभितं पुण्याबतव्रजभुवो यदयं द्रिलिङ्गगूटः पुराणपुरुषो वनचित्रमाल्यः गाः पालयन् सह बलः क्वणयंश्च वेणुं विक्रीडयाञ्चतिगिरित्ररमार्चिताङ्घ्रिः गोप्यस्तपः किमचरन् यदमुष्यरूपं लावण्यसारमसमोर्ध्वमनन्यसिद्धम् दृग्भिः पिबन्त्यनुसवाभिनवं दुराप मेकान्तधाम यशसः श्रिया ईश्वरस्य यादोहने वहनने मथनोपलेप प्रेङ्खेङ्कनार्भरुदितो क्षणमार्जनादौ गायन्ति चैनमनुरक्तधियोऽश्रुकण्ठ्यो धन्याव्रजस्त्रियौरुक्रमचित्तयानाः प्रातर्व्रजाद् व्रजता विशतश्च सायं गोपिः समं क्वणयतोऽस्य निशम्य वेणुम् निर्गम्य तूर्णमबलाः पथिभूरि पुण्याः पश्यन्ति सस्मितमुखं सदयावलोकम् एवं प्रभाषमाणासु स्त्रीसु योगेश्वरो हरिः शत्रुं हन्तुं मनश्चक्रे भगवान् भरतर्षभ सभया स्त्रीगिरः श्रुत्वा पुत्रस्नेहसु चातुरौ पितरावन्वतप्येतां पुत्रयोरबुधौ बलं तैस्तैर्नियुद्धविधिभिर्विविधैरच्युतेतरौ युयुधाते यथान्योन्यं तथैव बलमुष्टिकौ भगवद्गात्रनिष्पातैर्वज्रनिष्पेशनिष्ठुरैः चाणूरो भज्यमानाङ्गो मुहुर्ग्लानिमवापः सस्येन वेग उत्पत्त्य मुष्टीकृत्य करावुभौ भगवन्तं वासुदेवं क्रुद्धो वक्षस्य बाधत नाचलत्तत्प्रहारेण मालाहत इव द्विपः बहवोर्निगृह्य चाणूरं बहुशो भ्रामयन् हरिः भूपृष्ठे पोथयामास तरसाक्षीण जीवितं विस्रस्ता कल्पकेशस्रग् इन्द्रध्वज इवापतत् तथैव मुष्टिकः पूर्वं स्वमुष्ट्याभिहतेन वै बलभद्रेण बलिना तलेनापि हतो भृशं प्रवेपितः स रुधिरमुद्वमन्मुखतोर्दितः व्यसुः पपातोर्व्युपस्थे वाताहत इवाङ्घ्रिपः ततः कूटमनुप्राप्तं रामः प्रहरतां वरः अवधील्लीलया राजन् सावज्ञं वाममुष्टिना तर्येव हि शलः कृष्णपदापहत शीर्षकः द्विधा विदीर्णस्तो शलक उभावपि निपेततुः चाणूरे मुष्टिके कूटे शले तो शलके हते शेषा प्रदुद्रुवुर्मल्लाः सर्वे प्राणपरीप्सवः गोपान् वयस्यानाकृष्य तैः संसृज्य विजर्रतुः वाद्यमानेषु तूर्येषु वल्गन्तौ रुतनूपुरौ जना प्रजर्रिषु सर्वे कर्मणा रामकृष्णयोः ऋते कंसं विप्रमुख्याः साधवः साधु साध्विति हतेषु मल्लवर्येषु विद्रुतेषु च भोजरात् न्यवारयत् स्वतूर्याणि वाक्यम् चेदमुवाचः निःसारयत् दुर्वृत्तौ वसुदेवात्मजौ पुरात् धनम् हरत गोपानाम् नन्दम् बध्नीत दुर्मतिम् वसुदेवस्तु दुर्मेधा हन्यतामाश्वसत्तमः उग्रसेनः पिता चापि सानुगः परपक्षगः एवम् विकथमाने वै कंसे प्रकुपितो व्ययः लघिम्नोत्पत्य तरसा मञ्चमुत्तुङ्गमारुहत् तमाविशन्तमालोक्य मृत्युमात्मन आसनात् मनस्वी सहसोत्थाय जगृहे सोऽसि चर्मणि तम् खड्गपाणिम् विचरन्तमाशोष्येनम् यथा दक्षिणसव्यमम्बरे समग्रही दुर्विषहोग्रतेजा यथोरगम् तार्क्ष्यसुतः प्रसय्य प्रग्रह्य केशेषु चलत्किरीटम् निपात्य रङ्गोपरितुङ्गमञ्चात् तस्योपरिष्टात् स्वयमब्जनाभः पपात विश्वाश्रय आत्मतन्त्रः तम् सम्परे तम् वितकर्षभूमौ हरिर्यथेभम् जगतो विपश्यतः हा हेति शब्दः सुमहांस्तदा भूदुदीरितः सर्वजनैर्नरेन्द्र स नित्यदोद्विग्नधियातमीश्वरम् पिबन् वदन् वा विचरन् स्वपन् श्वसन् ददर्श चक्रायुधमग्रतो यस्तदेव रूपम् दुरवापमाप तस्यानुजा भ्रातरोष्टौ कङ्कन्यग्रोधकादयः अभ्यधावन्नभिक्रुद्धा भ्रातुर्निर्वेशकारिणः तथा तिरपसांस्तांस्तु संयत्तान् रोहिणीसुतः अहन् परिगमुद्यम्य पशूनिव मृगाधिपः ने दुर्दुन्दुभयो व्योम्नि ब्रह्मेशाद्या विभूतयः पुष्पैकिरन्तस्तम् प्रीताः शशंसुर्ननृतुः स्त्रियः तेषाम् स्त्रियो महाराज सुहृन्मरणदुःखिताः तत्राभियुर्विनघ्नन्त्यः शीर्षाण्यश्रुविलोचनाः शयानान् वीरशय्यायाम् पतीना लिङ्ग्य शोचतीः विलेपुः सुस्वरम् नार्यो विसृजन्त्यो मुहुः शुचः हा नाथ प्रियधर्मज्ञ करुणानाथ वत्सल त्वया हतेन निहता वयम् ते सगृहप्रजाः त्वया विरहिता पत्या पुरीयम् पुरुषर्षभ न शोभते वयमिव निवृत्तोत्सवमङ्गला अनागसाम् त्वम् भूतानाम् कृतवान् द्रोहमुल्बणम् तेने माम् भोदशाम् नीतो भूतधृक्को लभेतशम् सर्वेषामिह भूतानामेष हि प्रभवाप्ययः गोप्ता च तदवध्यायी न क्वचित् सुखमेधते श्रीशुक उवाच राजयोषित आश्वास्य भगवान् लोकभावनः यामाहुर्लौकिकीम् संस्थाम् हतानाम् समकारयत् मातरम् पितरम् चैव मोचयित्वाथ बन्धनात् कृष्णरामौ ववन्दाते शिरसा स्पृश्य पादयोः देवकी वसुदेवश्च विज्ञाय जगदीश्वरौ कृतसंवन्दनौ पुत्रौ सस्वजातेन शङ्कितौ ओम् स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् दशमस्कन्धे पूर्वार्धे कंसवधो नाम चतुश्चत्वारिंशोऽध्यायः श्रीकृष्णार्पणमस्तु नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम् यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।